एस रेडियो नेपाल सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। राजनीतिक दलानि प्रत्याशिनश्च अद्यतो निर्वाचन लक्षिताः मेला जनसभा कोणसभा जनयात्राः आयोजयितुम् शक्नुवन्ति। निर्वाचन आयोगेन गतदिने काष्ठमण्डपे आयोजिते पत्रकार सम्मेलने प्रमुख निर्वाचन आयुक्तः दिनेश कुमार थपलिया मार्गशीर्ष मासस्य चतुर्थे दिवसे सम्पत्स्यमानस्य प्रतिनिधि सभायाः प्रदेश सभानां च निर्वाचनस्य प्रत्याशिनः राजनीतिक दलानि च अद्यतः सभा सम्मेलन जनसभा जनयात्राः आयोजयितुम् शक्नुवन्तीति अवासत। एवमेव प्रत्याशिनः राजनीतिक दलानि च अद्यतः आयोगेन निर्धारितयोः आचार संहितायाः व्ययसीमायाः सभ्यन्तरे संस्थाय संचार माध्यमेभ्योऽपि विज्ञापनम् कर्तुम् शक्नुवन्तीति प्रमुख निर्वाचन आयुक्तः थपलिया अकथयत्। निर्वाचनायोगेन निर्वाचनस्य प्रचार प्रसारयोः मनोनयन पंजीकरण दिवसात् मतदान दिवसात् सप्तदश दिन पूर्व पार्यन्तिकम् अवधिम् प्रथम चरणे तदोत्तरावधिम् द्वितीय चरणे च विभज्य प्रथम चरणे प्रत्याशिभ्यः केवलम् मतदातृभिः सह मेलनस्य गृहद्वार प्राप्तेश्चैव कार्यक्रमम् कर्तुम् स्वीकृतिः प्रदत्ता आसीत्। आयोगेन अतपरम् दलैः प्रत्याशिभिश्च आयोज्यमानानाम् सभा सम्मेलन जनयात्राणाम् व्ययश्च प्रत्याशिनः निर्धारित व्यय समावेक्ष्यते इति स्पष्टीकुर्वता तत्सम्बद्धस्य सम्पूर्ण व्ययस्य विवरणम् सम्बद्ध प्रत्याशिना मतदान सम्पन्नानन्तरम् पञ्चदश दिनानाम् अभ्यन्तरे निर्वाचन कार्यालये प्रस्तुतव्यम् भवतीति ज्ञापितम् वर्तते। प्रमुख निर्वाचन आयुक्तः थपलिया निर्वाचने कस्यापि प्रत्याशिनः पक्षे विपक्षे वा सर्वकारीय स्रोत साधनानाम् प्रयोगम् निषेद्धुम् आयोगः सचेष्टोऽस्तीति चर्चयन् तथाविधम् कार्यम् न कर्तुम् कारयितुम् च सर्वान् अनुरुणद्धि चेति अवोचत्। प्रधानमन्त्री शेरबहादुर देउवा ह्य धनगढ़ी नगरम् प्राप्तोऽस्ति। प्रधानमन्त्रिणः देउवाभिधस्य अद्य डडेलधुरा गृहजनपदम् प्रस्थानस्य कार्यक्रमोऽस्तीति कैलाली जनपदस्य प्रर्युपरीक्षकः वेद जोशी ज्ञापयति। प्रधानमन्त्रिणः देउवाभिधस्य अद्यतः कार्तिकस्य विंशम् दिवसम् यावत् डडेलधुरा जनपदस्य विभिन्नेषु स्थानेषु आयोज्यमानेषु नैर्वाचनिक कार्यक्रमेषु सम्बोधनस्य कार्यक्रमो वर्तते। नेपाली कांग्रेस दलस्य सभापतिश्च प्रधानमन्त्री देउवा डडेलधुरा जनपदात् प्रतिनिधि सभायाः सदस्य पदस्य कृते प्रत्याशी वर्तते। संघीय सर्वकारस्य प्रदेश सर्वकाराणाञ्च मन्त्रिभिः स्थानीय कार्यपालिकायाः पदाधिकारिभिश्च निर्वाचनस्य प्रचार प्रसारयोः संलग्नतायाः समये सर्वकारीय स्रोत साधनानाम् प्रयोगः एतद् विक्रमवर्षीय नैर्वाचनिकाचार संहितया निषिद्धो वर्तते। आगामिनो मार्गशीर्ष मासस्य चतुर्थे दिवसे सम्पत्स्यमानम् निर्वाचनम् स्वच्छम् स्वतन्त्रम् निष्पक्षम् विश्वसनीयम् च विधातुम् निर्वाचन आयोगात् क्रियान्वितायाम् आचार संहितायाम् पदाधिकारिभिः निर्वाचनस्य प्रचार प्रसारयो क्रमे पालनीया व्यवस्था वर्तते। अस्या व्यवस्थायाः पालनाम् कर्तुम् कारयितुम् च निर्वाचन आयोगेन प्रधानमन्त्री मन्त्रिपरिषदः माध्यमेन सर्वकारस्य मन्त्रिणः मुख्यमन्त्री मन्त्रिपरिषदः कार्यालयानाम् माध्यमेन प्रदेश सर्वकाराणाम् मन्त्रिणश्च निर्दिष्टाः सन्ति। नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्डः कथयति संविधानस्य रक्षणस्य दायित्व माओवादी दले अधिकम् वर्तते। गोर्खा काष्ठमण्डप सम्पर्क समन्वय समित्या ह्य आयोजिते प्रशिक्षण कार्यक्रमे अध्यक्ष प्रचण्ड संविधानस्य निर्माणे माओवादी दलस्य अधिकम् योगदानमस्तीत्यतः अस्य रक्षणमपि माओवादी दले नैव विधेयमिति धारणाम् व्यक्तवान्। राष्ट्रिय आर्थिक सामाजिक रूपान्तरणाय संरचनागत सुधार आवश्यको स्थिति ज्ञापयन् असौ संविधानस्य रक्षणेन सह परिमार्जनस्य दायित्वमपि माओवादी केन्द्रस्य स्कन्धे वर्तते इत्यवोचत। अध्यक्ष प्रचण्ड राष्ट्रिय आर्थिक समृद्धये क्रान्तेः आवश्यकता स्थिति भासमाण अतपरम् शान्तिपूर्ण आर्थिक क्रान्तिः करिष्यते इति उदघोषयत्। असौ निर्वाचने जय विजययोः अपेक्षयापि नूतन प्रयत्नेन देशम् समाजवादम् प्रति नेतुम् अग्रे वर्धितम् अस्ति इति अज्ञापयत्। नेपाली कांग्रेस दलस्य प्रवक्ता डाक्टर प्रकाश शरण महत कथयति नेपाली कांग्रेस दलेन प्रकाशिते घोषणा पत्रे क्रियान्वयन क्षम विषय मात्र समाविष्टम वर्तते। यो बुटवल स्थाने आयोजित साक्षात्कार कार्यक्रमे प्रवक्ता डाक्टर महत नेपाली कांग्रेस दलेन प्रकाशितम घोषणा पत्रम प्रचारणस्य वैपरीत्येन कार्य सम्पादनाय स्थिति संस्पष्टयत। असौ अवासत निर्वाचनानन्तरम् दल सभापतेः रूपेण शेरबहादुर देवा एव प्रधानमन्त्रिणो रूपेण पुरस्कारिष्यते। शिक्षा विज्ञान प्रविधि मन्त्री देवेन्द्र पौडेलः वदति संघस्य प्रदेशानां च आसन्न निर्वाचनं स्वच्छ निष्पक्ष भएरैते च वातावरणे सम्पत्स्यते। बागलुङ जनपदस्य बडीगाड ग्रामपालिकायाः तृतीय वडा क्षेत्रवर्तिनी सिसार खानिस्थाने ह्य आयोजिते सत्ता गठबन्धनस्य नैर्वाचनिक कार्यक्रमे असौ मतदातृन् स्वतन्त्रतापूर्वकं स्वमताधिकारं प्रयोक्तुम् अन्वरुणत। राष्ट्रिय विषयाणां देशस्य आवश्यकतायाश्च आधारेण पञ्चदलानि एकत्र संस्थितानि सन्तीति चर्चयन् मन्त्री पौडेलः अब्रवीत् संविधानस्य उपलब्धीनां रक्षायै लोकतान्त्रिक शक्तिनां मध्ये नैर्वाचनिक गठबन्धनं निर्मितं वर्तते। श्रमवृत्ति सामाजिक सुरक्षा मन्त्री शेरबहादुर कुंवर भासते प्रतिनिधि सभायाः प्रदेश सभानां च सदस्यानां गत निर्वाचने वाम गठबन्धनाय प्राप्तं जनमतं न सम्मानितम्। असौ अछाम जनपदस्य रामा रोशन ग्रामपालिकाया बाटुला सेन स्थाने प्रतिगृहम प्राप्ति कार्यक्रमे स्थिरता विकास समृद्धिनां कृते गत निर्वाचने जनतया व्यक्तम मतम न सम्मानितम् इत्यतः सम्प्रति वाम लोकतान्त्रिक गठबन्धनम् निर्मितम् इति स्पष्टीकृतवान्। गोपाष्टम्याः अवसरमालक्ष्य ह्यः पशुपति गोशालायां संरक्षितेभ्यो गोवृषभेभ्यो विशेष पूजनपूर्वकं मिष्टान्नानि भक्षितानि सन्ति। प्रतिवर्षं कार्तिक शुक्लाष्टम्या दिने गोवृषभाणां पूजनपूर्वकं गोपाष्टमी पर्व समायोज्यते। गोपाष्टम्याः अवसरे काष्ठमण्डपे आयोजिते कार्यक्रमे संस्कृति पर्यटन नागरिकोड्डयन मन्त्री जीवन राम श्रेष्ठः गोमातु रूपेण प्रपूज्यमानायाः नेपालस्य राष्ट्रिय पशोः गोः संरक्षणाय सर्वैः संयोक्तव्यमिति बलं प्रादात। कार्यक्रमे कागेश्वरी मनोहरा नगरपालिकायाः प्रमुखः उपेन्द्र कार्की अकथयत राजधान्या नगरात् बहिः ग्रामीण भागे बहवो गोवृषभाः अनियन्त्रिततया मोच्यन्ते इत्यतः एतेषां संरक्षणाय स्थानीय सर्वकारस्य पक्षतः कार्याणि विधीयमानानि सन्ति। काष्ठमण्डप जनपद न्यायालये ह्यस्तन दिवसात् राष्ट्रिय क्रिकेट क्रीडा समूहस्य निलम्बितस्य कप्तान पदीयस्य सन्दीप लामिछाने इत्यस्य विरोधिनी न्यायिक प्रकरणे निग्रहणावस्था विमर्शनं प्रारब्धमस्ति। न्यायाधीशस्य माधव प्रसाद घिमिरेविदस्य न्यायपीठे लामिछाने इत्यस्य विरोधिनी न्यायिक प्रकरणे निग्रहणावस्थायाः विषये विमर्शनं प्रारब्धं सदपि निर्णयस्य श्रावणाय समयाभावस्य कारणेन विलोकनस्य क्रमे अद्य बृहस्पतिवासराय विमर्शनम् निर्धारितम् वर्तते। ह्य सर्वकारीयाधिवक्तृणां पक्षतः चतुर्भिः अधिवक्तृभिः लामिछाने इत्यस्य बलात्कारः वित्तस्थिति तर्काः प्रस्तुताः लामिछाने इत्यनेन बलात्कारः वित्तस्थिति तर्काः प्रस्तुताः अद्य लामिछाने विदस्य पक्षतः अधिवक्तृभिः तर्काः प्रस्तुयन्ते इति समाचाराः।